एष रेडियो नेपालः। सम्प्रति समाचारः श्रीयन्ताम् प्रवाचकः चन्द्रकान्त पौडेलः। सत्तायाम् सहभागिनाम् पञ्चानाम् दलानाम् ह्यः उपविष्टेन उपवेशेन स्थानीय स्तराणाम् निर्वाचनाय महानगरपालिकानाम् उपमहानगरपालिकानाम् च पदानाम् आवंटनम् विहितम् वर्तते। बालुवाटारवर्तिनी प्रधानमन्त्री निवासे उपविष्टेन तेनोपवेशेन अस्यैव वैशाखस्य त्रिंशे दिवसे सम्पत्स्यमानाय स्थानीय स्तराणाम् निर्वाचनाय महानगरपालिकानाम् उपमहानगरपालिकानाम् च प्रमुखाणाम् उपप्रमुखाणाम् च पदेभ्यः संयुक्त प्रत्याशिताया प्रस्तुत्यै पदानाम् आवंटनम् निर्णीतमिति संचार सूचना प्रविधि मन्त्री ज्ञानेन्द्र बहादुर कार्की अज्ञापयत्। पञ्चदलीय गठबन्धनस्य उपवेशे धृतायाः सहमतेः अनुसारेण नेपाली कांग्रेस दलेन काष्ठमण्डप ललितपुर विराटनगर महानगरपालिकासु धरान इटहरी कलैया बुटबल तुलसीपुर नेपालगंज धनगढ़ी उपमहानगरपालिकासु च प्रमुख पदाय प्रत्याशिता प्रस्तोष्यते। एवमेव वीरगंज भरतपुर पोखरा महानगरपालिकानाम् जितपुर सिमरा घोराही हेटौडा उपमहानगरपालिकानाम् च उपप्रमुख पदाय कांग्रेस दलेन प्रत्याशिताम् प्रस्तोतुम् सहमति धृतेति मन्त्री कार्की अवोचत्। एवमेव नेकपा माओवादी केन्द्रेण भरतपुर महानगरपालिकायाः जितपुर सिमरा घोराही उपमहानगरपालिकानाम् च प्रमुख पदाय प्रत्याशिता प्रस्तोष्यते। सत्तायाः गठबन्धनस्य दलानाम् मध्ये माओवादी केन्द्रेण ललितपुर महानगरपालिकायाः धरान धनगढ़ी उपमहानगरपालिका पालिकयोश्च उपप्रमुख पदाय प्रत्याशिताम् प्रस्तोतुम् सहमति धृता वर्तते। एवमेव पोखरा महानगरपालिकायाः हेटौडा उपमहानगरपालिकायाश्च प्रमुखस्य काष्ठमण्डप महानगरपालिकायाः इटहरी बुटवल तुलसीपुर उपमहानगरपालिकानाम् च उपप्रमुखस्य च पदाय नेकपा एकीकृत समाजवादी दलेन प्रत्याशिताम् प्रस्तोतुम् सहमति धृता अस्ति। सत्ता गठबन्धने धृतायाः सहमतेरनुसारेण वीरगंज महानगरपालिकायाः प्रमुखस्य विराटनगर महानगरपालिकायाः उपप्रमुखस्य च पदाय जसपाभिधेन जनता समाजवादी दलेन प्रत्याशिता प्रस्तोष्यते। एवमेव जनकपुरोपमहानगरपालिकायाः प्रमुखस्य कलैया नेपालगंज उपमहानगरपालिकयोः उपप्रमुखस्य च पदाय अपि जसपा दलेन प्रत्याशिताम् प्रस्तोतुम् सहमति धृतेति संचार सूचना प्रविधि मन्त्री ज्ञानेन्द्र बहादुर कार्की उपवेशस्य अनन्तरम् अज्ञापयत्। उपवेशेन पदावंटनस्य सम्बन्धे गठबन्धनस्य दलानां मध्ये स्थानीय स्तरेषु उत्पन्नानां विवादानां पारस्परिक विमर्शनस्य माध्यमेन समाधानाय स्वस्व दलस्य पक्षतः अनुरोधुं च निर्णीतमिति मन्त्री कार्की अवदत्। सत्तायाः गठबन्धनस्य उपवेशेन अवशिष्ट पदावंटनेषु अन्येषु स्थानेषु गठबन्धने इतः पूर्वं धृतायाः सहमतेः आधारेण अविलम्बं पदावंटनस्य निर्णयनाय असम्भव सहमतिषु स्थानेषु मित्रवत् प्रतिस्पर्धितायै निर्णयं विधातुं च गठबन्धनस्य स्थानीय स्तराणां संयन्त्राय निर्देशनं दातुमपि निर्णीतमिति मन्त्री कार्की अबोधयत्। प्रधानमन्त्रिणः नेपाली कांग्रेस दलस्य सभापतेश्च शेरबहादुर देउवाभिदस्य अध्यक्षतायाम् उपविष्टे उपवेशे नेकपा माओवादी केन्द्रस्य अध्यक्षः पुष्पकमल दाहाल प्रचण्डः नेकपा एकीकृत समाजवादिनः अध्यक्षः माधव कुमार नेपालः जनता समाजवादी दलस्य अध्यक्षः उपेन्द्र यादवः राष्ट्रिय जनमोर्चा दलस्य उपाध्यक्षा दुर्गा पौडेलश्च उपस्थिताः आसन्। गृहमन्त्री बालकृष्ण खाण घटबन्धनस्य विरोधिनो दन्यन्ते इति प्रत्यादिशति। ह्यः रूपन्देही जनपदस्य मणिग्रामस्थाने आयोजिते कार्यक्रमे पत्रकारैः सह गृहमन्त्री खाण अवदत् घटबन्धनस्य विरोधिनः निर्वाचने प्रत्याशिनो न भविष्यन्ति तेभ्यो दलान्तरेऽपि स्थानं न प्रदास्यते। मन्त्री खाण अवोचत् वर्तमान सर्वकारः घटबन्धनस्य आधारेण स्थितोस्तीति हेतोः कांग्रेस दलं घटबन्धनस्य निर्णयात् बहिः गन्तुं न शक्नोति। मन्त्री खाण अवदत् नेपाल राष्ट्रकोषागारस्य अधिशासकः स्वस्य दुर्बलता कारणेन निलम्बितः परं सर्वोच्च न्यायालयस्य निर्णयः सर्वकारेण सम्मान्यते। सर्वोच्च न्यायालयेन विदेहे निर्माणं विना शिला शिलाखण्ड बालुकाः न निष्कासयितुं सर्वकारस्य नामनि परमादेशः प्रदत्तो वर्तते। कार्यवाहक प्रधान न्यायाधीशस्य दीपक कुमार कार्किणः न्यायाधीशानां ईश्वर प्रसाद खतिवड़ा डाक्टर आनन्दमोहन भट्टराई अनिल कुमार सिन्हा प्रकाशमान सिंह राउत च इत्येषां सांविधानिक न्यायपीठेन वातावरण संरक्षणस्य प्रभावकारिणीं व्यवस्थां विधातुमपि सर्वकारः आदिष्टो वर्तते। प्राकृतिक स्रोतसां दोहनेन शिलाखण्ड बालुकादीनां निष्कासनस्य विषये संविधानस्य भावनायाः मर्मणश्च अनुकूलनत्वेन विधायिकया निर्मितेन विधिना अपरव्यवस्थायाः असम्पादनं यावत् बालुकादीनां निष्कासनस्य कार्याणि न कर्तुं न कारयितुं च परमादेशे उल्लिखितं वर्तते। एवमेव प्राकृतिक स्रोत साधनानां प्रयोगाय नीतिगतं पुनरावलोकनं विधातुं वातावरणस्य संरक्षणाय प्रभावकारी संयन्त्रं निर्मातुमपि परमादेशे उल्लिखितं वर्तते। सर्वोच्च न्यायालयेन गृहीतानुबन्धनान् स्थानीय स्तरान् विहाय अन्येष् स्थानीय स्तरेष् प्रत्याशिता प्रस्तुतिम् नावरुद्धुम् अन्तरिमादेश प्रदत्तो वर्तते। सर्वोच्च न्यायालयस्य न्यायाधीशस्य नहकुल सुवेदिन एकल न्यायपीठेन त्रिसप्तत्यधिक द्विसहस्रतमे निर्वाचनाधिनियमे स्थानीय स्तराणाम् अनुबन्धने चलाचल सम्पत्तेः व्यवहारे च संलग्नानां जनानां प्रत्याशिता न निषिद्धा परं निर्देशिकां वा कार्यविधिं निर्माय क्रियान्वितेति हेतोः व्यवस्थामिमां न क्रियान्वेतुम् आदिष्टं वर्तते। आदेशे स्वघोषणापत्रे केषामपि स्थानीय स्तराणाम् अनुबन्धन सम्बद्धे व्यवहारे संलग्ना स्थिति निगद्य व्यावसायिकानुबन्धन रहितेषु स्थानीय स्तरेषु अपि प्रत्याशितायाः निषेधनाय निर्वाचनायोगेन विहितः निर्णयः उचितो नास्तीति उल्लिखितं वर्तते। सूचना संचार प्रविधि सम्बद्धायाः मेलायाः सप्तविंशतितमा श्रृंखला ह्यः काष्ठमण्डपस्य भेगुटी मण्डपस्थाने प्रारब्धा वर्तते। मेलामिमाम् उद्घाटयन् नेपाल सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री च ज्ञानेन्द्र बहादुर कार्की अवदत् पर्यटन क्षेत्रस्य एव सूचना प्रविधेः क्षेत्रमपि वैदेशिक मुद्रायाः अर्जनस्य क्षेत्रस्य रूपेण विकसनम् आवश्यकम् अस्ति। बिम्स्टेक नाम्नः बहुपक्षीय प्राविधिकार्थिक सहकार्य बंगाल खातीय प्रयास संगठनस्य ऊर्जो मन्त्री स्तरीय तृतीयोपवेशः द्वादश सूत्रीय संयुक्त वक्तव्यं प्रकाश्य ह्यः सम्पन्नोऽस्ति। श्रव्यदृश्य प्रविधेर माध्यमेन सम्पन्नेन तेनोपवेशेन ऊर्जो व्यापार सहजीकरणाय विद्युत प्रणाली संयोजन गुरूयोजनायाः पूर्वकार्याय ऊर्जो व्यापार केन्द्र स्थापनायै च सहमतिं धृत्वा द्वादश सूत्रीयं संयुक्त वक्तव्यं सार्वजनीकृतं वर्तते। उपवेशस्य अध्यक्षतां कुर्वती ऊर्जो जलस्रोत सिंचन मन्त्री पम्फा भूषालः बिम्स्टेक सदस्य राष्ट्रेष् पर्याप्त प्राकृतिक स्रोतांसि विद्यमानानि सन्तीति उल्लिख्य विशेषतः स्वच्छानि नवीकरणीय प्राकृतिक स्रोतांसि ऊर्जसह रूपेण प्रयोक्तव्यानीत्यत्र बलं प्रादात्। नेकपा एमाले दलस्य अध्यक्षः पूर्व प्रधानमन्त्री च केपी शर्मा ओली स्वनेतृत्वस्य सर्वकारेण राष्ट्रिय स्वाधीनतायाः राष्ट्रियतायाश्च पक्षे नेपालीनां शिरसो न अवनमनत्वेन कार्यं कृतमिति कथयति। ललितपुरस्य गोदावरीस्थाने ह्यः आयोजिते कार्यक्रमे अध्यक्ष ओली राष्ट्रेण स्वस्य दृढताम् अवलम्ब्य परिवहनाविरोधः पराजितः इति चर्चयन् राष्ट्रस्य हिताय आत्मना कदापि विचलितेन न भूयते इत्यवाषत। सर्वकारेण अभियानस्य रूपेण संचालितम् आन्तर्जलस्य प्रतिरोधि टीकाकरणं सुरक्षितमस्तीति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितं वर्तते। मन्त्रालयेन ह्यः श्रव्यदृश्य प्रविधेर माध्यमेन सन्देशं सार्वजनिक कुर्वता विभिन्नाध्ययनैः प्रयोगैश्च आन्तर्जलस्य प्रतिरोधनाय नियन्त्रणाय च टीकाकरणमेतत् प्रभावकारी वर्तते इति पुष्टिभवनानन्तरं राष्ट्रिय टीकाकरण परामर्शन समितेः परामर्शेन सर्वकारेण टीकाकरणाय अनुमतिः प्रदत्तेति स्पष्टीकृतं वर्तते। पञ्चदश वर्ष वयस्काभ्यो बालबालिकाभ्य सर्वकारेण अभियानस्य रूपेण आधीयमानम् आन्तर्ज्वर प्रतिरोधी टीकाकरणम् अन्य टीकाकरणानां तुलनायां प्रभावकारी अस्तीति बालरोग विशेषज्ञ डा गणेश कुमार राई ज्ञापितवान्। डा राई विश्व स्वास्थ्य संगठनेनापि टीकाकरणस्य गुणस्तरं प्रमाणीकृत्य प्रयोगाय टीकाकरणमेतत् परामृष्टमिति अबोधयत्। आराष्ट्रं ह्यः अतिरिक्तेषु त्रयोदशसु जनेषु कोरोना संक्रमणं पुष्टीभूतं वर्तते। सहस्रत्रयस्य सप्तसप्तत्यधिकाष्टशतस्य च निदर्शनानां परीक्षणेन त्रयोदशसु जनेषु कोरोना संक्रमणं पुष्टीभूतमिति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितमस्ति। आराष्ट्रं ह्यः अतिरिक्ताः पञ्चविंशतिर्जनाः कोरोना संक्रमणात् मुक्ताः सन्ति।